इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। उपराष्ट्रपति पदाय निर्वाचनम् अद्य भविष्यति। एतस्मिन् निर्वाचने एनडीए संयुतेः प्रत्याशी महाराष्ट्रस्य राज्यपालस्य सीपी राधाकृष्णनवर्यस्य साम्मुख्यम् इंडी संयुतेः प्रत्याशिना सर्वोच्चन्यायालयस्य च प्राक्तनेन न्यायाधीशेन बी सुदर्शन रेड्डी इत्यनेन साकं भविष्यति। प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् राधाकृष्णनवर्यस्य उपराष्ट्रपतिपदाय नामांकनेन सम्पूर्णे देशे अत्यन्तम् उत्साहं दृश्यते इति। एकस्मिन् सोशल मीडिया सन्देशे श्रीमोदी अवदत् यत् जनाः मन्यन्ते यत् श्रीराधाकृष्णनवर्यः एकः उत्कृष्टः राष्ट्रपतिः भविष्यति। यः स्वज्ञानेन अन्तर्दृष्ट्या च उपराष्ट्रपतिपदस्य समृद्धं करिष्यति। प्रधानमन्त्री नरेन्द्रमोदी अद्य हिमाचलप्रदेशस्य पंजाबराज्यस्य च जलप्लावनस्य स्थितिं समीक्षितुम् उभयोः राज्ययोः साहाय्यस्य पुनर्वासस्य च प्रयासानां समीक्षां करिष्यति। प्रधानमन्त्री अद्य अपराह्णे हिमाचलप्रदेशस्य कांगड़ामण्डलस्य धर्मशालानगरं प्राप्स्यति। धर्मशालायां श्रीमोदी राज्यप्राधिकारिभिः सह उच्चस्तरीयसमीक्षासभायाः अध्यक्षतां करिष्यति तथा च आपदया प्रभावितैः स्थानीयनिवासिभिः सह संवादं करिष्यति। सः राष्ट्रिय आपत्प्रतिक्रियाबलस्य एनडीआरएफ इत्यस्य राज्यापत्प्रतिक्रियाबलस्य एसडीआरएफ इत्यस्य च उद्धारकार्ये संलग्नानां आपत्मित्रदलानां कार्मिकैः सह मेलनं करिष्यति। श्रीमोदी हिमाचलप्रदेशस्य जलप्लावेन भूस्खलनेन च प्रभावितानां क्षेत्राणां वायवीय सर्वेक्षणम् अपि करिष्यति। हिमाचलप्रदेशस्य अनन्तरं प्रधानमन्त्री पंजाबराज्यस्य जलप्लावितानां क्षेत्राणां वायवीय निरीक्षणं करिष्यति। श्रीमोदी सायं प्रायः सपादचतुर्वादने गुरुदासपुरं गत्वा वरिष्ठैः अधिकारिभिः सह चर्चां करिष्यति तथा स्थित्याकलनाय समीक्षासभायाः अध्यक्षतां करिष्यति। सः गुरुदासपुरे जलप्लावेन प्रभावितैः जनैः तथा एसडीआरएफ एनडीआरएफ इत्येतयोः आपत्मित्रदलेन सहापि संवादं विधास्यति। प्रधानमन्त्रिणः प्रत्यक्षसमीक्षायाः उद्देश्यम् अस्मिन् दुष्करसमये द्वयोः राज्ययोः जनानां साहाय्यस्य पुनर्वसनस्य च प्रयासानां निकटतया निरीक्षणम् अस्ति। इजरायलदेशस्य प्रधानमन्त्रिणा बेंजामिन नेतन्याहुवर्येण भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना यरूसलेमनगरे भयोत्पादक आतंक्याक्रमणे प्रकटिते दुःखे धन्यवादः प्रदत्तः, यस्मिन् षड् निर्दोषजनाः मृताः, अनेके जनाः व्रणिताः च जाताः। एकस्मिन् सोशल मीडिया पटले लिखिते सन्देशे इजरायलदेशस्य प्रधानमन्त्रिणा उल्लिखितं यत् आतंकवादं सर्वेषां कृते भयप्रदं शापम् अस्ति इति। मॉरिसस देशस्य प्रधानमन्त्री डॉ नवीन चंद्र रामगुलामः, तस्य पत्नी वीणा रामगुलामः च अद्यारभ्य अस्य मासस्य 16 दिनांकपर्यन्तं भारतस्य 8-दिवसीय यात्रायां भविष्यति। यात्रावधौ प्रधानमन्त्री रामगुलामः राष्ट्रपतिपदासीनया द्रौपदी मुर्मूवर्यया सह मेलनं करिष्यति तथा च प्रधानमन्त्रिणा नरेन्द्रमोदिना सह रणनीतिक सहभागित्वं वर्धयितुं चर्चां करिष्यति। नेपालदेशे सामाजिकसञ्जालप्रतिषेधस्य सर्वकारस्य निर्णयं विरुध्य युवजनैः प्रवर्तिते विरोधप्रदर्शने न्यूनातिन्यूना 29 जनाः मृताः, प्रायः 130 यावज्जनाः व्रणिताः। काठमाण्डुनगरस्य बानेश्वरक्षेत्रे ह्यः जनरेशन जेड इति आधुनिकपीठिकायाः युवकानां प्रदर्शनस्य हिंस्ररूपे परिवर्तनेन आरक्षिभिः विहिते गुलिकाप्रहारे 29 जनाः मृताः सन्ति। नेपाले सोशल मीडिया इति सामाजिकसञ्जाले प्रतिबन्धप्रवर्तनात् आधुनिकयुवानः मार्गेषु विरोधप्रदर्शनार्थं प्रेरिताः जाताः। फुटबॉल क्रीडायां तजाकिस्तान देशस्य हिसोर सेंट्रल क्रीडांगणे 25-2000तमवर्षस्य CAFA इति काफा नेशंस कप इत्येतस्यां स्पर्धायां भारतेन तृतीयस्थानं प्राप्य कांस्यपदकं विजितम् इति वार्ताः।